श्री गुरुभ्यो नमः हरि ओम। जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः सन पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिता त्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं वैलोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवी गुं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पुश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शम्योः विश्वानि नो दुर्गः जातवेद सिन्धु ननावा दुरिताति परिशी अग्ने अत्रिवन् मनसा गृणानो स्माकं बोध्यविता तनूनाम् पृतनाजितगुं सहमानमुग्रमग्निगुं हुवेम परमा सदस्तात् स नः पर्षदति दुर्गाणि विश्वा क्षाम देवो अतिदुरितात्यग्निः प्रत्नोषि कमीद्यो अध्वरेषु सनाश्च होता नव्यश्च सत्सि स्वाञ्चाग्ने तनुवं विप्रयस्वा स्मभ्यञ्च सौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णो रणु सञ्चरेम नाकस्य पृष्टमभिसं वसानो वैष्णवीं लोक इह मादयन्ताम् ॐ कात्यायनाय विद्महे कन्यकुमारी धीमहि तन्नो दुर्गे प्रचोदयात् ॐ शान्ति शान्ति शान्ति।